अथ श्रीकृष्णचन्द्राष्टकम् महानीलमेघातिभव्यं सुहासं शिवब्रह्मदेवादिभिः संस्तुतश्च रमामन्दिरं देवनन्दापदाहं भजे राधिकावल्लभं कृष्णचन्द्रम् रसंवेदवेदान्तवेद्यन्दुरापं सुगम्यन्तदीयादिभिर्दानवघ्नं लसत्कुण्डलं सोमवंशप्रदीपं भजे राधिकावल्लभं कृष्णचन्द्रं यशोदादिसल्लालितं पूर्णकामन् दृशोरैजनं प्राकृतस्थस्वरूपं दिनान्ते समायान्तमेकान्तभक्तैर्भजे राधिकावल्लभं कृष्णचन्द्रम् कृपादृष्टिसम्पातसिक्तस्वकुजन् तदन्तःस्थितस्वीयसंयग् दशादं पुनस्तत्र तैः सत्कृतैकान्तलीलं भजे राधिकावल्लभं कृष्णचन्द्रम् गृहे गोपिकाभिर्धृते चौर्यकाले तदक्ष्णोश्च निक्षिप्य दुग्धै चलन्तं तदा तद्वियोगादिसम्पत्तिकारं भजे राधिकावल्लभं कृष्णचन्द्रम् चलत्कौस्तुभव्याप्तवक्षः प्रदेशं महावैजयन्तीलसत्पादयुग्मम् सुकस्तूरिकादीप्तभालप्रदेशं भजे राधिकावल्लभं कृष्णचन्द्रम् गवादोहने दृष्टराधामुखाब्जन् तदानी च तन्मीलनव्यग्रचित्तं समुत्पन्नतन्मानसैकान्तभावं भजे राधिकावल्लभं कृष्णचन्द्रम् अदक् कृष्णचन्द्राष्टकं प्रेमयुक्तः पठेत् कृष्ण सान्निध्यमाप्नोति नित्यं कलौ यः स संसारदुःखातिरिक्तं प्रयात्येव विष्णुः पदं निर्भयं तत् भजे राधिकावल्लभं कृष्णचन्द्रं भजे राधिका वल्लभं कृष्णचन्द्रं भजे राधिकावल्लभं कृष्णचन्द्रं भजे राधिका वल्लभं कृष्णचन्द्रम् इति श्रीरघुनाथप्रभुविरचितम् श्रीकृष्णचन्द्राष्टकं सम्पूर्णम्।